सर्वेषां गीतसोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते। भगिनी एकवारं स्मारयतु।
विद्या नाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनं, विद्या भोगकरी यशस्सुखकरी, विद्या गुरूणां गुरुः, विद्या बन्धुजनो विदेशगमने, विद्या परा देवता, विद्या राजसुपूज्यते न तु धनम्, विद्याविहीनः पशुः।
बहु उत्तमं, धन्यवादाः। ल्यबन्तानां चिन्तनं प्रवर्तमानमस्ति। सारांशत्वेन वक्तव्यं चेत्, ल्यप् इति प्रत्ययः भावार्थकप्रत्ययः, सर्वेभ्यः धातुभ्यः ल्यप् प्रत्ययः विहितः भवति। ल्यप् इति प्रत्यये लकारपकारयोः अनुबन्धलोपः भवति। अनुबन्धवर्णाः लकारः पकारः च द्वयोः अनुबन्धलोपः भूत्वा या अवशिष्यते। निरनुबन्धप्रत्ययः या अस्ति, ल्यबन्तानि अव्ययानि भवन्ति। ल्यप्रत्ययान्तयुक्तानि पदानि अव्ययानि भवन्ति, अव्ययात् आप् सुपः इति सूत्रेण अव्ययानि भवन्ति। ल्यप्रत्ययः यकारादिप्रत्ययः, यकारः वलादिः नास्ति, वल्प्रत्याहारे नास्ति, अतः आर्धधातुकस्येड्वलादेः इति सूत्रेण अयं प्रत्ययः अनिट् प्रत्ययः भवति। धातुतः ल्यप् प्रत्ययस्य योजनेन यत् पदं निर्मितं भवति तस्मिन् इडागमः न दृश्यते, इकारः न श्रूयते। ल्यप् प्रत्ययान्तशब्देषु इडागमः न कदापि दृश्यते, किन्तु क्त्वा इति प्रत्ययः सेट् प्रत्ययः, तस्मिन् इडागमः भवितुम् आनुकूल्यमस्ति। ल्यप्रत्ययः सर्वदा क्त्वा प्रत्ययस्य स्थाने आयाति। क्त्वा प्रत्ययः कित् प्रत्ययः, ककारः इत् संज्ञकः अस्ति क्त्वा प्रत्ययः। क्त्वा प्रत्ययः कित् प्रत्ययः, कित्वात् गुणनिषेधः। ल्यप्रत्ययः क्त्वा प्रत्ययस्य स्थाने आयाति इति कारणतः क्त्वा प्रत्ययस्य गुणाः अस्मिन् प्रत्यये अध्यारोप्यन्ते, अतः ल्यप्रत्ययः अपि कित्वत् प्रवर्तते, इत्युक्ते क्त्वा प्रत्ययवत् प्रवर्तते। धातोः परं ल्यप्रत्ययस्य योजनेन धातौ गुणकार्यं भवितुम् आनुकूल्यमस्ति चेदपि ल्यप्रत्यये परे गुणकार्यं न भवति। यथा क्त्वा प्रत्यये परे गुणकार्यं न भवति तथा एव अत्रापि गुणकार्यं निषिध्यते। लिख् धातुतः लिखित्वा विलिख्य इति रूपमेव सिद्ध्यति, यद्यपि लिख् धातुः लघु इगुपदधातुः। कदा आयति क्त्वा प्रत्ययः? एकः एव कर्ता क्रियाद्वयं करोति चेत् पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः भवतु। ल्यप्रत्ययः क्त्वा प्रत्ययस्य स्थाने आयाति। क्त्वा प्रत्ययः अपि भावार्थकप्रत्ययः, ल्यप् अपि भावार्थकप्रत्ययः। समानकर्तृकयोः पूर्वकाले इति सूत्रेण क्त्वा प्रत्ययः विहितः भवति। क्त्वा प्रत्ययस्य स्थाने ल्यप् आयाति, तत्र सूत्रमस्ति समासे अनै पूर्वे क्त्वो ल्यप्। क्त्वा प्रत्ययान्तशब्दाः अपि अव्ययशब्दाः भवन्ति, अव्ययात् आप्सुपः इति सूत्रेण भवन्ति। क्त्वा प्रत्ययः तकारादिप्रत्ययः, अतः सेट् प्रत्ययः। ल्यप् प्रत्ययः यकारादिप्रत्ययः, यकारः वलि नास्ति इत्यतः अनिट् प्रत्ययः भवति, इत्युक्ते ल्यप् प्रत्यये इडनुकूलता नास्ति, इडागमः न कदापि दृश्यते। अपि च एतौ द्वौ प्रत्ययौ धातुभ्यः विधीयमानौ प्रत्ययौ, कृत् प्रत्ययौ, धातुतः विधीयमानप्रत्ययानां द्वैविध्यमस्ति, इत्युक्ते धातुतः विधीयमानप्रत्ययाः द्विधा भवन्ति, तिङ् प्रत्ययाः कृत् प्रत्ययाः। क्त्वा प्रत्ययः ल्यप् प्रत्ययः एतत् प्रत्ययद्वयं तिङ् प्रत्ययद्वयं नास्ति, कृत् अस्ति, इत्युक्ते ये प्रत्ययाः तिङ्गः न सन्ति ते कृत् प्रत्ययाः भवन्ति। एतौ द्वौ प्रत्ययौ अपि धातुभ्यः विधीयमानौ प्रत्ययौ, एतौ द्वौ प्रत्ययौ अपि सर्वेभ्यः धातुभ्यः विधीयन्ते, केचन कृत् प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते, विशिष्टधातुभ्यः एव केचन कृत् प्रत्ययाः विधीयन्ते, किन्तु क्त्वा प्रत्ययः ल्यप् प्रत्ययः एतौ द्वौ प्रत्ययौ सर्वेभ्यः धातुभ्यः विधीयमानौ प्रत्ययौ कृत् प्रत्ययौ. सारांशत्वेन किञ्चित् उक्तवती, पुनस्मरणं भवति इति मत्वा उक्तवती. अद्य वयं ल्यबन्तानां चिन्तनमेव कुर्मः. पुस्तके 37 पृष्ठं पश्यन्तु, 136 पुटं पश्यन्तु. तत्र कानिचन रूपाणि, ल्यबन्तरूपाणि दत्तानि, तेषां प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. अभ्यासः इति लिखितमस्ति, 37 पृष्ठं पश्यन्तु. सुजात भगिनी, भवती आरम्भं करोतु.
यदोदाहरणं लेबन्तरूपाणि लिखत. उदाहरणमस्ति, प्रायोगः क्षालयति, प्रक्षाल्य लेबन्तरूपमस्ति. प्रा उपसर्गः अस्ति, क्षाल् धातु अस्ति.
उत्तमम्. यथोदाहरणम् इति पदमस्ति.
यदः योगः उदाहरणं यदो गुणसन्
कार्यमस्ति. एकवारं वदामि, यथा यथा तथा इति पदप्रयोगं वयं जानीमः. यदा तदा अस्ति, यथा तथा इति युगलद्वयमस्ति. यदा तदा अपि अस्ति, यथा तथा इत्यपि अस्ति. यथा इति अव्ययं स्वीकृत्य उदाहरणम् इति सुबन्तपदं योजयामश्चेत् तत्र अव्ययीभावसमासं कुर्मः. यथोदाहरणम् इत्यस्मिन् पदे अव्ययीभावसमासः अस्ति इति अहं चिन्तयामि. उत् उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, ह्रूधातुतः ल्युट् प्रत्ययस्य योजनेन उदाहरणम् इति पदं सिद्ध्यति. उदाहरणम् इत्यत्र अन्ते मकारः अस्ति, उत्तरपदस्य आदिमवर्णः लकारः, व्यञ्जनमस्ति. व्यञ्जनमस्ति इति कारणतः वदतु.
व्यञ्जनमस्ति इति कारणतः अनुस्वारः भवति.
उत्तमम्. मोनुस्वारः इति सूत्रेण व्यञ्जनसन्धिः अथवा अनुस्वारसन्धिः. अत्र अनुस्वारसन्धिकार्यमस्ति, मकारस्य स्थाने अनुस्वारः आयाति. एवमेव ल्यप् इति प्रत्ययस्य नाम, ल्यप् योगः अन्त इत्यत्र किं कार्यमस्ति?
लेबन्त सन्धि भवति,
सन्धिः भवति. झलां जशोन्ते इति सूत्रेण जस्त्वसन्धिकार्यं भूत्वा ल्यप् योगः अन्तः, ल्यबन्त पकारस्य स्थाने बकारः आयाति. कर्कषव्यञ्जनानि मृदुव्यञ्जनानि नाम्ना व्यञ्जनानि सन्ति खलु, कर्कषव्यञ्जनस्य स्थाने मृदुव्यञ्जनम् आयाति इति कृत्वा ल्यप् योगः अन्तः, ल्यबन्त इति रूपं. रूपाणि इत्यत्र णत्वकार्यं भवति. लिखत कीदृशं रूपं?
लिखत मध्यमपुरुष लोट्लकार मध्यमपुरुष बहुवचनमस्ति.
उत्तमम्. अभ्यासः इत्यत्रापि अभि उपसर्गपूर्वकः आसः इति रूपमस्ति. आस् इति धातुः अस्ति, घञन्तरूपमेव आसः. अभि योगः आसः, तत्र सन्धिकार्यमस्ति, वदतु.
अभियोगः आसः अभ्यासः यणसन्धि भवति.
उत्तमम्. अत्र इको यणचि इति सूत्रेण अभ्यासः इति रूपं सिद्ध्यति. प्रक्षालयति इत्यत्र क्षाल् धातुः चुरादिगणे अस्ति, धातोः मूलरूपमस्ति क्षल्, धातुः तु चुरादिगणे. भवती जानाति, वदतु किं कार्यमस्ति?
क्षल् योगः निच् प्रत्यययोजनेन क्षालि इति धातुः भवति. क्षालियोगः शप् योगः ति योजनेन क्षालि काले भवति.
क्षालिरूपं कथं भवति वदतु.
क्षालि क्षाल् योगः निच् योजनेन.
पुनः वदामि, क्षल् योगः निच् इति
निच् योजनेन नकारस्य इत्संज्ञा भवति, चकारस्य अपि इत्संज्ञा भवति. ई एव अवशिष्यते, क्षल् योगः ई भवति, क्षाली भवति.
कथं
क्षल् अचो नीति इच्छनेन
अत्र अचोणिति कार्यं नास्ति. अचः णिति इति सूत्रे उक्तमस्ति, अचः इति उक्तमस्ति. अचः इति कथनेन धातुः अजन्तधातुः स्यात्. अत्र धातुः अजन्तधातुः वा
न? अजन्तधातुः नास्ति.
अत उपधायाः
आं भगिनी क्षम्यताम्. अत उपधायाः इत्यनेन शाली भवति सनाजन्तधातु इत्यनेन इति सूत्रेण क्षाली सनाजन्तधातुः भवति.
उत्तम. सनाद्यन्ता धातवः इति एकं सूत्रम् उक्तवती. सनाद्यन्ता धातवः इति संज्ञासूत्रमस्ति. अनेन सूत्रेण नूतनधातोः धातुसंज्ञा भवति. औपदेशिकधातुः अस्ति क्षल्, किन्तु क्षाली इति नूतनधातोः निर्माणम् अस्माभिः क्रियते. नूतनधातोः अपि धातुसंज्ञा दीयते. नूतनधातोः धातुसंज्ञा सनाद्यन्ता धातवः इति सूत्रेण दीयते, किन्तु औपदेशिकधातोः धातुसंज्ञा भुवादयो धातवः सूत्रेण धातुसंज्ञा दीयते. औपदेशिकधातुः क्षल् अस्ति, चुरादिगणे अस्ति इति कारणतः णिच् योजयामः. णिच् प्रत्ययस्य योजनेन क्षाली इति रूपं सिध्यति. तत्र अत उपधायाः इति सूत्रं कार्यं करोति. अत इति कथनेन उपधायां ह्रस्व अकारः स्यात्. तादृशधातोः परं पठ् अस्ति चेत् पाठी भवति, क्षल् अस्ति चेत् क्षाली, एवं रूपाणि भवन्ति. प्रक्षालयति इति णिजन्तरूपम् अस्ति. चुरादिगणीयधातुः अस्ति इति कारणतः स्वार्धे प्रेरणार्थे द्वयोः प्रसङ्गे रूपं समानं भवति. प्रक्षालयति इति स्वार्धे प्रेरणार्थे रूपं समानं, प्रक्षालयति इति एव भवति. प्र उपसर्गपूर्वकः अस्ति. प्रक्षाल्य इति रूपं ल्यबन्तं सिध्यति. बहु सम्यक् भगिनि, अग्रे वदतु.
आयोगः गच्छति, आ उपसर्ग गम् धातुतः गच्छति. लबन्तरूपम् अस्ति, आगम्य भवति.
उत्तमं. गम् धातुः अस्ति इति कारणतः आगम्य भवति. तत्र इतोपि चिन्तनमस्ति, तत्र आगत्य रूपमपि साधु. किमर्थम् इत्युक्ते गम् इति धातुः मकारान्तधातुः अस्ति. अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इति सूत्रेण अनुनासिकान्तधातुषु अनुनासिकवर्णस्य लोपः भवति, किन्तु गम् यम् रम् नम् इत्यादिषु धातुषु, इत्युक्ते एते धातवः विशिष्टतया मकारान्तधातवः. मकारान्तधातूनां प्रसङ्गे इतोपि विशिष्टचिन्तनम् अस्ति. मकारान्तधातूनां प्रसङ्गे अयं मकारलोपः वाल्यपि इति सूत्रेण विकल्पेन भवति इत्यतः आगत्य इति रूपमपि अस्ति. आगत्य आगम्य, आगत्य इति रूपं साधयितुं तत्र इतोपि अन्यत् सूत्रमपि अस्ति. ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तुक् आगमः भवति इत्यतः आगत्य इति रूपमपि अस्ति, आगम्य इति रूपमपि अस्ति. तत्र वाल्यपि इति सूत्रं कार्यं करोति इत्यतः रूपद्वयमपि अस्ति. यम् धातुः अस्ति चेत् प्रयम्य प्रयत्य इति रूपद्वयमस्ति. नम् धातुः अस्ति चेत् प्रणम्य प्रणत्य इति रूपद्वयमस्ति. मकारान्तधातूनां प्रसङ्गे एव ईदृशं कार्यं भवति वाल्यपि इति सूत्रेण. अग्रिमं रूपं वदतु.
प्रायोगः नमति, परियोगः गणयति. परि उपसर्ग अस्ति, गणधातु अस्ति. गणयति निजन्तरूपम् अस्ति वा भगिनि?
उत्तमं. चुरादिगणे अस्ति.
परिगण्य भवति लबन्तरूपम्.
अत्र किं लिखितम्?
परिगण्य लिखितमस्ति. परिगणय्य,
परिगणय्य इति लिखितमस्ति. चुरादिगणीयधातुः एव. परि उपसर्गपूर्वकः गणधातोः रूपं परिगणय्य इति भवति. वि उपसर्गः अस्ति चेत्
विगणय्य भवति.
विगणय्य. रचयति इति रूपम् अस्ति, चुरादिगणे अस्ति. वि उपसर्गपूर्वकः रच् धातोः रूपं विरचय्य इति रूपं भवति. एवमेव कथयति इति रूपम् अस्ति, चुरादिगणे एव अस्ति. प्र उपसर्गपूर्वकः कथ धातोः ल्यबन्तरूपमस्ति. वदतु.
प्रकथय्य
तत्र भेदः अस्ति खलु, उच्चारणभेदः अस्ति खलु?
अस्ति भगिनि.
उत्तमम्. एवमेव उपशमय्य, सङ्गमय्य, विगणय्य, सन्दमय्य, प्रशमय्य, प्रणमय्य. एकं पदं वयं जानीमः एव, अवनमय्य इति रूपम् अस्ति. नमयति इति रूपं किं रूपम् अस्ति?
नम् धातुतः नित्ययोजनेन
नमयति भवति. प्रावुपसर्गपूर्वकः नम् धातुतः णिच् योजयित्वा ल्यप् योजयामः. तेन प्रणमय्य, अव अस्ति चेत् अवनमय्य इत्यादीनि रूपाणि सिद्ध्यन्ति. णिजन्तधातूनां प्रसङ्गे एव एतादृशं कार्यं भवति. सूत्रमस्ति ल्यपि लघुपूर्वात् इति सूत्रम्. सूर्यकुमारी भगिनी, ल्यपि लघुपूर्वात् सूत्रं किं वदति?
लघुपूर्वात् ल्यपि लघुपूर्वात् गुण भवति.
तथा न वक्तव्यं. लघुवर्णः उपधायाम् अस्ति चेत् णिच् प्रत्यये परे णिच् प्रत्ययस्य इकारस्य स्थाने ऐ ऐ इति आदेशः भवति. ल्यपि परे णिच् प्रत्ययस्य इकारस्य स्थाने ऐ आदेशः भवति इति कृत्वा ईदृशानि रूपाणि सिद्ध्यन्ति. विरचय्य, प्रकथय्य, विनमय्य, सङ्गमय्य, प्रगणय्य, विगणय्य, प्ररचय्य, सन्दमय्य, प्रशमय्य, अवनमय्य इत्यत्र लटिरूपं तु णिजन्तरूपम् अस्ति. णिजन्तरूपेषु एव ईदृशानि रूपाणि सिद्ध्यन्ति. णिजन्तधातुः नूतनधातुः. औपदेशिकधातुतः णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. णिच् प्रत्ययः द्वादशसनादिप्रत्ययेषु अन्यतमप्रत्ययः. द्वादशसनादिप्रत्ययेषु अन्यतमप्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. णिजन्तधातुः नूतनधातुः. नूतनधातुः चेदपि सर्वाणि कृदन्तरूपाणि सिद्ध्यन्ति. णिजन्तानाम् अपि सर्वाणि कृदन्तरूपाणि साधयितुं शक्नुमः. अत्र परिगणयति इति लटिरूपमस्ति. परिगणय्य इति ल्यबन्तरूपमस्ति. ल्यपि लघुपूर्वात् इति सूत्रेण णिच् प्रत्ययस्य इकारस्य स्थाने ऐ आदेशः भवति इति कृत्वा ऐ इति कथनेन अकारः यकारः इति स्मर्तव्यः अंशः. यचोयवायावः इति सन्धिसूत्रे वयं पठामः खलु, ऐ आदेशः भवति. अत्रापि इकारस्य स्थाने ऐ विशिष्टसूत्रेण आदेशः भवति. इत्यतः परिगणय्य इति रूपं सिद्ध्यति. सूर्यकुमारी भगिनी, निर्गच्छति इत्यत्र वदतु.
निजयोगः गम् धातुतः लप्रत्ययं भगिनि. गम् निर्गत्य निर्गम्य भवति वा लपि सूत्रेण.
उत्तमं. यथा मया पूर्वम् उक्तम्, आगत्य आगम्य इव अत्रापि निर्गत्य निर्गम्य इति रूपद्वयं सिद्ध्यति. वाल्यपि इति सूत्रेण, ल्यपि इति कथनेन ल्यप्रत्यये परे इति अर्थः. वा इति कथनेन विकल्पेन पाणिनीयसूत्रेषु वा इति पदं यत्र कुत्रापि आयाति चेत् वा इत्यस्य अर्थः विकल्पेन रूपद्वयं सिद्ध्यति. वदतु अग्रिमम्.
संयोगः स्थापयति. संयोगः स्थाधातुतः ल्यप्
इतोपि अस्ति.
संस्थाप्य भवति.
रूपं तु साधु एव, संस्थाप्य. अत्र किमस्ति इतोपि वदतु.
संयोगः स्थाधातुतः ल्यप् संयोगः स्थायोगः य सम्पदमस्ति चेत् अनुस्वारः भवति. सं सं योगः स्था योगः य स्थाप
संयोगः स्थायोगः ल्यप् इति कथनेन संस्थाय इति रूपं भवति. संस्थाय इति कीदृशं रूपम्?
संस्थाय
अणिजन्तरूपम्.
हा भगिनि.
अत्र णिच् अपि अस्ति खलु.
फुगागम भवत्.
हुक् आगमः भवति स्थात् आकारान्तधातुः आकारान्तधातूनां प्रसङ्गे अर्ति ह्री व्ली क्नूयि क्ष्मायि यातां पुङ्नौ इति सूत्रेण हुक् आगमः भवति इति कृत्वा लटीरूपं स्थापयति अत्र णिच् प्रत्ययस्य योजनेन विशिष्टसूत्रेण पुक् आगमः भूत्वा स्थापि इति नूतनधातोः रूपं सिद्ध्यति अत्र णिजन्तरूपस्य ल्यबन्तरूपं वक्तव्यं संस्थाप्य णिच् नास्ति चेत् संस्थाय इति भवति स्थाधातुः आकारान्तधातुः स्थाधातोः रूपं स्थापयति दा अस्ति चेत्
दाप्य
लटीरूपं वदतु
दापयति
दापयति सम् उपसर्गपूर्वकः दा धातुतः णिच् अपि ल्यप् दा धातोः ल्यबन्तरूपं णिच् सहितं रूपं वदतु
दा धातुतः दापि भवति दाप्या भवति
णिच् नास्ति चेत् किं भवति
दा योगः दाय
सन्दाय इति रूपम् अस्ति आ उपसर्गपूर्वकः दा धातुतः ल्यप् योजयतु किं भवति
आदाप्य
णिच् नास्ति
आदाय
उत्तमम् आदाय इति भवति आदाय इति बहु प्रसिद्धं पदं निधाय रूपं साधयतु
नि उपसर्गतः धा धातुतः निच् नास्ति चेत् निधाय
उत्तमं निधाय इति पदमपि प्रसिद्धं पदमस्ति तत्र धातुः धा अस्ति धा धातोः रूपं दधाति आदाय इत्यत्र अल्पप्राणदकारः अस्ति दा धातुः भिन्नः धा धातुः भिन्नः दा धातुः धा धातुः धातुद्वयमपि जुहोत्यादिगणे अस्ति दा धातोः रूपं ददाति धा धातोः रूपं दधाति आदाय इति प्रसिद्धं पदं निधाय प्रदाय इति पदं प्रा उपसर्गपूर्वकः दा धातुतः ल्यप् योजनेन इमानि अणिजन्तरूपाणि णिच् अस्ति चेत् पुक् आगमः भवति दापयति धापयति इत्यादीनि रूपाणि भवन्ति अग्रे संहरति इति लिखितमस्ति वदतु भवती एव
सम् उपसर्गसः हृ धातुतः ल्यप् प्रथमम् अनुस्वारः भवति सम् हृ संहृत्य ह्रस्व ऋकार अस्ति चेत् तुगागमः भवति संहृत्य भवति
बहु सम्यक् उक्तवती भगिनी प्रथमतया किं स्मर्तव्यं सम् इति एकं पदमेव धातोः पूर्वम् अस्ति इति कारणतः तस्य नाम उपसर्गः अपि पदमेव भिन्नं पदमेव अत्र सम् इति एकं पदमस्ति मनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वारादेशः भवति किन्तु हकारस्य परसवर्णः नास्ति इत्यतः परसवर्णादेशः अत्र न भवति इति कारणतः अनुस्वारसहितं रूपमेव लेखनीयं संहृत्य इति रूपं भवति हृधातुः ह्रस्वरुकारान्तधातुः अस्ति इति कारणतः ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तुक् आगमः भवति इत्युक्ते तकारः आगमरूपेण आयाति इत्यतः संहृत्य इति रूपं सिद्ध्यति हरति साधयतु
हृधातुतः वादिगणे अस्ति सेप् आयाति कत्रि सेप् इत्यनेन सेप् आयाति कर्तार्थे हृ योगः सेप् अनुबन्धलोपनमन्त्रम् आभवति सार्वधातुक अर्धधातुकयोः एकगुणः भवति हर् भवति हर्योगः आयोगः ति हरति
बहु सम्यक् साधु तदेव हृ इति इगन्तधातुः अस्ति इत्यतः शप् प्रत्ययं निमित्तीकृत्य भुवादिगणे अस्ति इति कारणतः शप् प्रत्ययं निमित्तीकृत्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा हर् भवति, हर् योगः आयुगति हरति. रोहिणी भगिनी भवती वदतु अग्रे किं लिखितमस्ति.
परियोग त्यजति, परित्यज्य इति रूपं भवति, त्यज धातौ परित्यज्य.
तत्र कार्यमस्ति वा?
किमपि न चिन्तयति.
तत्र किमपि कार्यं नास्ति. परियोगः त्यज्योगः ल्यप् योजयतु.
परित्यज्य ल्यप् इत्यस्य या एव अवशिष्यते, त्यज्योग या त्यज्य.
ल्यप् प्रत्ययस्य अनुबन्धलोपे सति या अवशिष्यते, परियोगः त्यज्योगः या परित्यज्य, तावदेव. अग्रे वदतु.
आयोग चादयति, आच्छादयति, आच्छाद्य इति दत्तमेव.
आच्छादयति इति णिजन्तरूपमस्ति. णिजन्तरूपमस्ति, तत्र धातुः छद् अस्ति. पठ् अस्ति चेत् पाठयति इति वदामः, छद् अस्ति चेत् छादयति इति रूपं भवति. केन सूत्रेण वृद्धिः भवति?
अत उपद अतो प्रायः छद् इति रूपं छाद् भवति. छादयोगया आच्छाद्य स्वरस्य द्वित्वं भवति आच्छाद्य.
छद् धातुः अस्ति, छद् धातुः छादि इति भवति. णिजन्तरूपम् अस्ति, णिजन्तरूपमेव छादयति. अत उपधायाः इति सूत्रेण उपधायां स्थितस्य ह्रस्व अकारस्य वृद्धिः भूत्वा छद् छाद् भवति. छाद्योगः इ छादि इति नूतनधातुः. अग्रे वदतु.
प्रयोग आप्नोति, प्र आप् इति धातुः, प्राप्य इति व्यबन्धरूपम्.
सन्धिकार्यमस्ति वा?
किमपि न अस्ति. प्रायोगः सवर्णदीर्घः एव प्राप्य.
प्रायोगः आप्योगः ल्यप् इत्यत्र सन्धिकार्यमस्ति, सवर्णदीर्घसन्धिः अस्ति. आप्नोति प्रसङ्गे भवती वक्तुमिच्छति वा?
स्नम् इति स्नु इति विकरणप्रत्ययं भवति इति. आप् आप्योग न्योयोग अत्र सर्वधातुक अर्धधातुकयोः इति गुणं भूत्वा आप्नोति इति भवति.
उत्तमं. सुजाता भगिनी भवती वदतु, आप्नोति इति रूपं कथं साधयामः?
आप्योगः स्नुयोगः ति भवति, नु एव अवशिष्यते. अङ्गस्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. आप् नु नो भवति, आप्नोति भवति.
उत्तमम्. अयं धातुः स्वादिगणे अस्ति, पञ्चमे गणे अस्ति. स्वादिगणे अस्ति इति कारणतः स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति विकरणप्रत्ययः आयाति. श्नु विकरणप्रत्यये शकारः इति संज्ञकः, नु अवशिष्यते. आप् इति धातौ गुणकार्यं भवितुं तत्र आनुकूल्यं नास्ति. अपि च श्नु प्रत्ययः अपित् प्रत्ययः, अतः गुणकार्यं न भवति. अपित् श्नु विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति इत्यतः आप् योगः नु श्नु विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति. आप्नु इति रूपं सिध्यति. पश्चात् तिप् इत्यस्मिन् प्रत्यये तित्वम् अस्ति इति कारणतः तिप् प्रत्ययं निमित्तीकृत्य आप्नु इति इगन्तमङ्गमस्ति. इगन्तमङ्गमस्ति इति कारणतः सार्वधातुकार्धधातुकयोः सूत्रेण तिप् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति, अतः आप्नोति इति रूपम्. अत्र प्रा उपसर्गपूर्वकरूपम् अस्ति. प्रा उपसर्गपूर्वकरूपं प्राप्य, सम उपसर्गपूर्वकरूपं. रोहिणी भगिनी
संयोग प्रायोग ल्यप् सम्प्राप्य.
प्रा नास्ति चेत्
समाप्य.
समाप्य प्राप्य भिन्नं, सम्प्राप्य भिन्नं, समाप्य भिन्नं खलु? प्राप्य इत्यत्र किम् अवगन्तव्यम्?
प्रायोगोपसर्गः आप् इति धातुः.
सम्प्राप्य इति रूपं कस्मिन् प्रसङ्गे वदतु?
योग प्रायोग देव उपसर्ग संयोग प्रायोग आपयोग लेप संप्राप्य इति
उत्तम प्राप्य भिन्नं संप्राप्य भिन्नं समाप्नोति इति लटी रूपमस्ति ल्यबन्तं वदतु
समाप्योग समाप्य
समाप्य इति रूपं लेखनीयम् अग्रे वदतु अग्रे किम् अस्ति
संयोग ईषते समेक्ष्यादि ल्यबन्तरूपं दत्तमेव संयोग ईट् दातु ईषयोग या समेक्ष्य
अत्र सन्धिकार्यमस्ति वा वर्णमेलनमस्ति वा
वर्णमेलनमेव
वर्णमेलनमेव अस्ति सन्धिकार्यं कृत्वा सम् इति रूपं लिखितमस्ति इत्युक्ते मकारस्य स्थाने अनुस्वारः पूर्वमेव लिखितमस्ति संयोगः ईक्ष्य समीक्ष्य वर्णमेलनं कृत्वा लिखितम् अस्ति अग्रे वदतु
निरियोग ईक्षते लबन्धरूपं निरीक्ष्य तत्रापि किमपि विशेषकार्यं नास्ति
ईक्ष धातुः आत्मनेपदी धातुः एकवारं रूपाणि वदतु लटी रूपाणि
ईक्षते
सुजाता भगिनी भवती वदतु ईक्षते
ईक्षते ईक्ष्येते ईक्षन्ते ईक्षसे ईक्ष्येते ईक्षध्वे ईक्षे ईक्षावहे ईक्षामहे
बहु सम्यक् ईक्ष धातुः आत्मनेपदी धातुः अतः रूपाणि एवं भवन्ति वर्षा भगिनी भवती वक्तुमिच्छति वा अग्रिमानि रूपाणि दृष्ट्वा
प्रयत्नं करोमि निर्योगः ईक्षते निरीक्ष्य एव रूपम् अत्र ईक्ष् धातु द्वादिगणे ईक्ष् योगः ल्यप् ईक्ष्य भवति निर्योगः ईक्ष्य अत्र वर्णमेलनमेव
अग्रे
प्रणम्य भवति अत्र प्रणम्य नकारस्य णत्वं भवति तस्य पूर्व रेफा उपसर्गे रेफा पूर्वमस्ति इति कृत्वा अत्र नकारस्य णत्वं भवति प्रणम्य इति रूपं सिद्ध्यति नम् धातु
उत्तमं नम् धातोः प्रसङ्गे किञ्चित् वक्तुमिच्छामि नम् इति लौकिकधातुः किन्तु उपदेशावस्थायां तस्य रूपं णम अस्ति इत्युक्ते मूर्धन्यणकारादिधातुः उपदेशावस्थायां मूर्धन्यणकारादिधातुः अयं धातुः तस्य प्रसङ्गः अत्र किमर्थम् अस्ति किमर्थं वदन्ती अस्मि इत्युक्ते धातुः उपदेशावस्थायां मूर्धन्य अणकारादधातुः अस्ति चेदेव विशिष्ट अणत्वविधायकसूत्रेण अस्मिन् पदे अणत्वं भवति उपदेशावस्थायां धातुः मूर्धन्य अणकारादिधातुः सुजाता भगिनी भवती वदतु उपदेशावस्थायां मूर्धन्य अणकारः अस्ति चेत् किं कार्यं करणीयं
नोनः इत्यनेन नोनः इत्यनेन नकारः आयाति नम् भवति
उत्तमम् अणो नः इति सूत्रम् इत्युक्ते उपदेशावस्थायां मूर्धन्य णकारादिधातुषु मूर्धन्य णकारस्य स्थाने दन्त्यणकारः आयाति इदं कार्यं प्राकृतिकं कार्यं साधारणतया व्याकरणे निमित्तमस्ति चेदेव कार्यं भवति किन्तु इदं कार्यं तु निमित्तं नास्ति चेदपि कार्यं भवति निमित्तम् अस्य कार्यस्य कृते अनावश्यकम् संस्कृतव्याकरणे बहुत्र निमित्तमस्ति चेदेव कार्यं भवति किन्तु अणो नः इति सूत्रस्य कार्यं भवितुं निमित्तम् अनपेक्षितं निमित्तम् अनावश्यकम् इति कृत्वा णो नः सूत्रेण णकारस्य स्थाने दन्त्यनकारः आयाति इत्यतः लौकिकधातुः नम् णत्वविधायकसूत्रे अपि तदेव उच्यते रेपः उपसर्गे अस्ति निमित्तम् उपसर्गे अस्ति दन्त्यनकारः उत्तरपदे अस्ति तादृशी स्थितिः अस्ति चेत् तत्र सूत्रं किम् एकवारं स्मारयतु सूत्रम्
किं नत्वं सूत्रं भवति नकारः
णत्वस्य कृते
उपसर्गात्
असमासे णोपदेशस्य
आं भगिनी विस्मृतवती
किमर्थं वदन्ती अस्मि, बहुवारं वदामश्चेत् किञ्चित् मनसि तिष्ठति, चिन्ता मास्तु. उपसर्गात् असमासे अणोपदेशस्य इति सूत्रेण अणत्वविधायकसूत्रं तत्, तेन सूत्रेण प्रणमति इत्यस्मिन्, प्रणम्य इत्यस्मिन् पदे अपि अणत्वं भवति. नवत्रिंशत् अणत्वविधायकसूत्राणि सन्ति, तेषु इदं सूत्रम् अन्यतमसूत्रमस्ति. प्रणत्य प्रणम्य इति रूपद्वयमपि सिद्ध्यति, रूपद्वये अपि अणत्वम् आयाति. उपसर्गाद् असमासे अणोपदेशस्य इति सूत्रेण अस्मिन् पदे अणत्वं भवति. धातुः मूर्धन्यणकारादिधातुः इत्यतः तेन सूत्रेण अणत्वम् आयाति. अपि च नम् धातुः मकारान्तधातुः, यथा गम् धातोः प्रसङ्गे चिन्तनं कृतमासीत्, आगत्य आगम्य, एवमेव अत्रापि प्रणत्य प्रणम्य इति रूपं द्वयं सिद्ध्यति. वर्षा भगिनी अग्रे वदतु.
वि योगः गणयति, अत्रापि गण धातु चुरादिगणे, अत्रापि विगणय्य इति रूपं भवेत्. सूत्रं भवती उक्तवती किल, ल्यपि लघुपूर्वाति सूत्रेण विगणय्य इति रूपं भवति.
उत्तमं. प्रा अस्ति चेत्
प्रगणय्य इति भवति.
शम् धातुः अस्ति चेत् शमयति इति रूपम् अस्ति, तत्र ल्यबन्तं किम् अस्ति?
शमयति एव अस्ति, अत्र एक यकारस्य लोपः.
किं पृच्छन्ती अस्मि इत्युक्ते शमयति इति णिजन्तलट्टीरूपम् अस्ति.
किल
न मम प्रश्नः तु णिजन्तधातोः ल्यबन्तरूपं वक्तव्यम्. वर्षा भगिनी भवती वदतु. उपशमय्य इति रूपं सिद्ध्यति, इत्युक्ते शमयति इति णिजन्तरूपमस्ति. महोदयेन यदुक्तमस्ति शाम्यति इति अणिजन्त लट्टीरूपं शाम्यति इति. महोदय भवान् वदतु, श्याम्यति इति रूपसिद्धौ सूत्रं किमस्ति?
श्याम्यति इति रूपसिद्धौ ओके, शम इति अदु अजन्त अचोणिति इति सूत्रेण शमयोगे निजन्तम् ओके निच् भवति.
शाम्यति इति उक्तवान् खलु, शम् धातुः दिवादिगणे अस्ति, शम् धातुः दिवादिगणे अस्ति इति कारणतः शाम्यति इति रूपं सिद्ध्यति. शाम्यति इति रूपं साधयितुं तत्र एकं विशिष्टं सूत्रमस्ति, शमाम् अष्टानां दीर्घः श्यनि. तत्र अष्टधातवः सन्ति दिवादिगणे, शमाम् अष्टानां दीर्घः श्यनि. दिवादिगणे श्यन् इति विकरणप्रत्ययः आयाति खलु, शमाम् अष्टानां दीर्घः श्यनि इति विशिष्टसूत्रेण शाम्यति इति रूपं सिद्ध्यति. किन्तु णिजन्तरूपमस्ति शमयति. णिजन्तप्रसङ्गे वदन्ती अस्मि, उपशमय्य इति णिच्युक्तं ल्यबन्तम् इति मम आशयः. प्रशमय्य, उपशमय्य इत्यादीनि रूपाणि णिच्युक्तानि ल्यबन्तानि. विगणय्य इति रूपम् अत्र लेखनीयम्. प्रगणय्य इति अपि रूपमस्ति. सङ्गमय्य इति कथनेन गम् धातोः णिच्युक्तं रूपं, सङ्गत्य सङ्गम्यरूपं भिन्नं. सङ्गत्य सङ्गम्य इत्यत्र णिच् नास्ति, णिच् अपि अस्ति चेत् सङ्गमय्य इति रूपं सिद्ध्यति. परिगणय्य इत्यादीनि रूपाणि सन्ति, तत्र ल्यपि लघुपूर्वात् इति सूत्रेण इकारस्य स्थाने ऐ आदेशः भूत्वा ईदृशानि रूपाणि सिद्ध्यन्ति. ईदृशानि रूपाणि विशिष्टानि खलु, किञ्चित् तत्र उच्चारणे वैशिष्ट्यमस्ति खलु, तदर्थं वदन्ती अस्मि. परिगणय्य, विरचय्य, प्रकथय्य, उपशमय्य, सङ्गमय्य, सन्दमय्य, प्रशमय्य, प्रणमय्य, णिच्युक्तानि ल्यबन्तानि इमानि. वर्षा भगिनी अग्रे वदतु.
उत् योगः तिष्ठति, तिष्ठति अत्र स्थादातु, स्थादातु ल्यबन्तरूपम् उत्थाय इति भवेत्. कथं रूप स्था इति अत्र कथं रूपसिद्धं भवति इति अहं न जानामि उत्थाय
चिन्ता मास्तु अत्र प्र उपसर्गः अस्ति चेत् किं भवति रूपं
प्रस्थाय इति भवेत्
उत्तमं प्रस्थाय इति भवति उत् अस्ति चेत् उत्थाय इति रूपं भवति अत्र धातुः अस्ति स्था धातुः स्थाधातुः आकारान्तधातुः आकारान्तधातुः अपि च स्थाधातोः प्रसङ्गे एकं विशिष्टं सन्धिकार्यं भवति उत्थाय उत्थापयति उत्थानम् इत्यादिषु रूपेषु सुन्दरमहोदय वदतु सूत्रं किम्
उक्कागमः सूत्रं वा
न अत्र उत्थाय इति रूपं साधयितुं तत्र एकं विशिष्टं सूत्रम् आवश्यकं वदतु
उत्थाय सकारस्य लोपः भवति विशिष्टसूत्रेण परन्तु न जानामि भगिनि
उदः स्थास्तम्भो पूर्वस्य इति सूत्रमस्ति उदः स्थास्तम्भो पूर्वस्य इति विशिष्टसूत्रेण ईदृशानि रूपाणि सिद्ध्यन्ति धातुः तु स्था स्थाधातोः प्रसङ्गे उत्थाय इति रूपं भवति तत्र सकारस्य स्थाने थकारादेशः भवति महाप्राणथकारः आयाति उदः स्थास्तम्भो पूर्वस्य इति सूत्रेण उत् उपसर्गपूर्वकः स्थाधातुः स्तम्भधातुः द्वयोः प्रसङ्गे तत् सूत्रं कार्यं करोति सकारस्य स्थाने थकारादेशः भवति अतः उत्थाय उत्थानम् उत्थापयति इत्यादिषु रूपेषु तत् सूत्रम् अवश्यं वक्तव्यं सुजाता भगिनी भवती वदतु उत्तिष्ठति इत्यत्र स्थाधातोः प्रसङ्गे किं भवति
पुगागम भवति महोदय स्थाप स्थाप ये भवति
तिष्ठति इत्यत्र तिष्ठति
तिष्ठति
रोहिणी भगिनी भवती वदतु
आत्मनेपदं
तिष्ठ आदेशः भवति स्था इत्यस्य
उत्तमं तिष्ठ आदेशः भवति तद्वक्तव्यं विकरणप्रत्यये परे तिष्ठ आदेशः भवति तत्र एकं विशिष्टं दीर्घं सूत्रमस्ति तस्मिन् सूत्रे धातवः दत्ताः धात्वादेशाः अपि दत्ताः पाघ्राध्मा एवं बहुदीर्घं सूत्रमस्ति तस्मिन् सूत्रे स्थाने तिष्ठ आदेशः भवतु इति लिखितमस्ति सार्वधातुकलकारेषु एव लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु एव स्थाधातोः प्रसङ्गे तिष्ठ आदेशः भवति धातुः स्था एव किन्तु तिष्ठ आदेशः भवति इत्यतः तिष्ठति तिष्ठतु अतिष्ठत् इत्यादीनि रूपाणि तत्र सिद्ध्यन्ति इति स्मर्तव्यः अंशः अत्र स्थाधातुः आकारान्तधातुः खलु ईदृश आकारान्ताः केचन मम पुरतः सन्ति ज्ञाधातुः अस्ति ज्ञाधातोः रूपं जानाति अस्ति किन्तु ल्यबन्तरूपं किमस्ति विज्ञाय प्रस्थायरूपमपि अस्ति पुस्तके किं लिखितम् उत् उपसर्गपूर्वकः स्थाधातुतः ल्यप् रूपं किम् इति लिखितवन्तः उत्थाय इति रूपं तत्र आयाति प्रा उपसर्गः अस्ति चेत् प्रस्थाय ज्ञाधातोः रूपं विज्ञाय धाधातोः रूपं निधाय इमानि ल्यबन्तरूपाणि आदाय अत्र आ उपसर्गपूर्वकः दाधातुतः ल्यप् योजनेन आदाय आदाय इत्युक्ते स्वीकृत्य इति अर्थः खलु निधाय इत्युक्ते निक्षिप्य एते धातवः स्था धा दा ज्ञा एते धातवः आकारान्ताः आकारान्तधातुः अस्ति चेत् आर्धधातुकप्रक्रियायां तत्र भिन्नकार्याणि भवन्ति वर्षा भगिनी अग्रे वदतु अग्रे किम् अस्ति
अनुयोगः भवति भूधातु अनु अनुभव अनुभाव्य अनुभूय
अनुभूय अत्र किमपि कार्यं नास्ति भगिनि अत्र अनु उपसर्गः अस्ति भू इति धातुः अस्ति तस्मात् परं ल्यप् इति प्रत्ययं योजयामः ल्यप् इति प्रत्यये पकारः इति संज्ञकः लकारः अपि इति संज्ञकः द्वयोः अनुबन्धलोपे सति या अवशिष्यते अनुयोगः भूयोगः या वर्णमेलनेन अनुभूय तत्र किमपि कार्यं नास्ति अग्रे वदतु
परियोगः वेषयति अत्र वेषयति धातु विषिति भवेत् अस्य निजन्तरूपम्
निजन्तरूपं वेषयति णिच् नास्ति चेत् ल्यबन्तं किं भवति
नास्ति चेत् ल्यबन्तं परिविश्य इति भवेत्
वा परिविश्य इति भवति तत्र धातुः विष् अस्ति परियोगः विष्योगः ल्यप् इति स्थितिः अस्ति ल्यप्रत्यये क्त्वाप्रत्ययस्य गुणाः अध्यारोप्यन्ते अतः ल्यप्रत्ययः अपि क्त्वाप्रत्ययः इव प्रवर्तते क्त्वाप्रत्ययः कित् प्रत्ययः ल्यप्रत्ययः अपि कित्वत् प्रवर्तते कित्वम् अस्ति चेत् गुणनिषेधः भवति विष् इति धातुः लघु इगुपथधातुः धातोः आनुकूल्यम् अस्ति गुणकार्यं भवितुं किन्तु धातोः परं कित् प्रत्ययः अस्ति कित्वात् गुणनिषेधः भवति इत्यतः अणिजन्तरूपं परिविश्य इति भवति किन्तु अत्र किं वक्तव्यं वदतु परिवेश्य इति वक्तव्यमस्ति अत्र णिजन्तरूपमस्ति वेषयति इति णिजन्तरूपमस्ति वेषि इति नूतनधातुः णिजन्तधातुः अस्ति परिविश्य इति भिन्नं परिवेश्य इति भिन्नम् अस्ति
अत्र णिजन्तमस्ति इत्युक्ते वेषय्य न भवति किम्
न भवति वेश्य एव भवति
तत्र नक्त्वा स्वेट् सूत्रेण
नक्त्वा स्वेट् नास्ति णेरनिटि
इडागमयुक्तधातुतः वा अकित्वं भवति
न वेशि इति नूतनधातुः अस्ति तत्र इकारः कुत्र गतः परिवेश्य इति कथनेन
वेशि वेशे भवति एचोयवा सूत्रेण
न भवति वेशि इति नूतनधातुः परियोगः वेशियोगः ल्यप् अस्ति ल्यप्रत्यये कित्वम् अस्ति
अहं चिन्तयामि भगिनि नाक्त्वा सेट् सेट् युक्तः धातुतः क्त्वा प्रत्यय अपि गुण भवति
भगिनि परन्तु वयम् उक्तवन्तः किल णिजन्ते यदा णिजन्तरूपम् अस्ति तदा यथा स्थापय्य अभवत् परिगणय्य अभवत् तत् अत्र अपवादः किमर्थमस्ति
अत्र किं कार्यमस्ति इति एकवारं वदामि विष् इति धातुः अस्ति विष् धातुः लघु इगुपथधातुः अस्माकम् आशयः कः णिजन्तरूपं साधयामः णिजन्तं किम् इति प्रश्नः वेषयति इति प्रसङ्गे वदन्ती अस्मि प्रथमतया किं करणीयं विष् धातोः परं णिच् प्रत्ययं योजयामः प्रेरणार्थे णिच् प्रत्ययं योजयामः न तु स्वार्थे किमर्थं धातुः चुरादिगणे नास्ति चुरादिगणे नास्ति इत्यतः प्रेरणार्थे णिच् प्रत्ययं योजयामः विषयोगः णिच् स्थितिः अस्ति तत्र णिच् प्रत्ययः आर्धधातुकप्रत्ययः अतः णिच् प्रत्ययं निमित्तीकृत्य विष् इति धातुरूपी अङ्गे पुगन्तलघुपथस्य च सूत्रेण गुणकार्यं भूत्वा वेष् भवति वेष्योगः णिच् इत्यस्मात् इ आगतः वेषि इति नूतनधातुः नूतनधातुं स्वीकृत्य इदानीं णिजन्तयुक्तं ल्यबन्तं साधनीयं परियोगः वेशियोगः ल्यप् इति स्थितिः अस्ति परियोगः वेशियोगः ल्यप् तत्र रूपं किं सिद्ध्यति परिवेश्य वेशियोगः य वेशि इत्यत्र शकारोत्तरवर्ति इकारः अस्ति सः इकारः कुत्र गतः इति प्रश्नः सूर्यकुमारी भगिनी वदतु
आम् नेरनिति इति सूत्रे इदनुकूलधातुतः प्रथम ई लोपः भवति
तत्र इकारः गतः वेशि इत्यत्र इकारः गन्तव्यः वेशि इति नूतनधातुः णिजन्तधातुः पश्चात् ल्यप्रत्ययः अस्ति ल्यप्रत्ययस्य या अस्ति परिवेश्य इति रूपमेव साधु वर्षा भगिनी भवती एव वदतु अग्रे किमस्ति
अभियोगः नन्दति नन्दति धातु अत्र अभि योगः नन्द् योगः ल्यप् अभिनन्द्य इति रूपं सिद्ध्यति.
उत्तमम्. अत्र नन्द् इति लौकिकधातुः. रोहिणी भगिनी भवती वदतु, नन्द् धातुः उपदेशावस्थायाम् इदित् धातुः, तु नद्यौ इति रूपम् अस्ति, तत्र किं कार्यमस्ति?
इदितोन्नं धातोः इति नकारस्य आगमनं नम आगम भवति.
इतोपि सन्धिकार्याणि वक्तव्यानि खलु?
सन्धिकार्यं किमपि
तत्र नश्चापदान्तस्य झलि, अनुस्वारस्य ययि, परसवर्णः, पुनः नकारः एव भवति इत्युक्ते सत्यं, किन्तु वक्तव्यं खलु?
नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारः भवति, अनुस्वारस्य ययि परसवर्णः इति दकारस्य परसवर्णः नकारः भवति, नन्दति नन्द् भवति नन्दति इति लोकम्.
उत्तमम्. सुन्दरमहोदय भवान् वदतु, टु नद्यौ इति धातोः मूलरूपम् अस्ति, वदतु.
टु नद्यौ इति धातुः अस्ति. अत्र अन्तिम एवंकारः अनुनासिकयुक्त इकारः उपदेशे अजनुनासिक इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति इति कारणेन सः इत् अन्तिम इकारः इत् इत् यस्य सः इति इदित् धातुः भवति. तदनन्तरम् इदितो नुम् धातोः इति सूत्रेण नुम् आगमः भवति, नुम् इति आगमः भवति. अत्र नुम् धातुः उकारः उच्चारणार्थमेव मकारः मकारः हलन्त्यम् इति सूत्रेण मकारः इत्संज्ञा भूत्वा अपगच्छति इति कारणेन मकारः इम् इत् यस्य सः मित् भवति. मकारः सोरि नुम् दा नुम् इति आगमः मित् आगमः भवति इति कारणेन मिदच्चोन्त्यात् परः इति सूत्रेण तस्य स्थानं निर्दिशति. नुम् धातु नुमागमस्य स्थानं निर्दिशति स्थानम् अन्त्य मित् अचः अन्त्यात् परः अन्त्यात् अचः परः मित् आगमः भवति इति कारणेन अन्तिम अच् वर्णस्य परः एव मित् आगमः भवति इति कारणेन न न इद् नद्यौ इति इति धातुः अस्ति मूलधातुः अस्ति दकारस्य पूर्वम् अकारस्य पूर्वम् इद् न इद् नकारस्य पूर्वं नन्द् इति भवति नकारः दकारस्य पूर्वं भवति नन्द् इति भवति. तदनन्तरं तदनन्तरं नश्च अपदान्तस्य झलि इति सूत्रेण नकारः अनुस्वारः भवति नश्च अपदान्तस्य झलि इति सूत्रेण झल् नकारः अनुस्वारः भवति तदनन्तरं नन्द् न अनुस्वारः इद् नन्द् इति भवति. तदनन्तरं अनुस्वारस्य ययि परे परसवर्णः इति सूत्रेण परसवर्ण रूपम् अनुस्वारस्य स्थाने आगच्छति दकारस्य नकारः एव परसवर्णरूपम् इति कारणेन नन्द् नन्द् पुनरेकवारं न इन् द् नन्द् इति भवति. सो नन्द् इति अन्तिमं रूपं नन्द् नन्द् आगच्छति नन्दति इति नन्दति इति अन्तिमं रूपं सिद्ध्यति. तदेव भगिनि
यथा महोदयेन उक्तमस्ति, लौकिकधातोः रूपं साधयितुं तत्र बहूनि प्राकृतिकानि कार्याणि करणीयानि. मुख्यं सूत्रमस्ति इदितोनुं धातोः इति सूत्रेण नुम् आगमः भवति नुम् आगमः मित् आगमः अस्ति नकारः आयाति नकारः आगमरूपेण आयाति मित्रवत् आगमः अत्र टु नद्यौ इति मूलधातोः रूपम् अस्ति टु इति आदिर्निटुडवः इति सूत्रेण इति संज्ञकः भवति इकारः अनुनासिकः अस्ति इति कारणतः उपदेशजनुनासिक इत् इति सूत्रेण इति संज्ञकः भूत्वा अन्यानि प्राकृतिककार्याणि भूत्वा नन्द् इति लौकिकधातोः रूपं सिद्ध्यति समृद्धौ इत्यस्मिन् अर्थे अयं धातुः अस्ति धातुः भुवादिगणे अस्ति इति कारणतः शप् आयाति नन्दियोगः शप् योगः तिप् इत्यत्र नन्दियोगः आयोगः ति नन्दति इति रूपं सिद्ध्यति किन्तु अत्र ल्यबन्तं वक्तव्यम् अभि नन्द् योगः या अभिनन्द्य तत्र किमपि कार्यं नास्ति लौकिकधातुं स्वीकुर्मः अनन्तरं या योजयामः अभिनन्द्य तावदेव रमेश महोदय भवान् वदतु अग्रे किम् अस्ति
उपयोगः करोति उपकृत्य तत्र कृ इति ह्रस्व धातुः अस्ति ह्रस्वस्य पिति कृति तुप् इति उगागमः भवति उपकृत्य इति रूपं सिद्ध्यति
उत्तमं भवान् साधयितुम् इच्छति वा करोति इति रूपं
कृयोगः सप्तमगणः अस्ति
अष्टमः गणः तनादिकृण्भ्यः उः तनादिगणे अस्ति क्रू धातुः डुक्रुञ् इति धातुः अस्ति वक्तुमिच्छति वा
न महोदय अहं न जानामि
चिन्ता मास्तु महोदय सुन्दरमहोदय भवान् वदतु डुक्रुञ् इत्यत्र किं भवति
डुक्रुञ् डुक्रुञ् इति धातुः अस्ति तनादिकृञ्भ्यः उः इति सूत्रेण तनादिगणीय कृ धातोः परम् उ इति विकरणप्रत्ययः विहितः तदनन्तरं कृ कृयोगे कृ डुक्रुञ् डुक्रुञ् इति धातुः डुकारः आदिर्ञटुडवः इति सूत्रेण डु इति वर्णसमूहः इत्संज्ञा भूत्वा अपगच्छति तदनन्तरं ञकारः अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा अपगच्छति कृ एव लौकिकधातुः अवशिष्यते कृयोगे उ कृयोगे उ योगे तिप् भवति तदनन्तरं उ इति विकरणप्रत्ययः आर्धधातुकसंज्ञकः इति कारणतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणः भवति एवं कृयोगे उ गुणः भूत्वा एवं तदनन्तरम् उरण्ड्रपरः अपि अत्र कार्यं करोति कृ कर् भवति कर् योगे उ योगे तिप् इति भवति तदनन्तरं मिलित्वा अङ्गे अङ्गं भवति धातुरूपी अङ्गम् अङ्गस्य स्थाने अधुना इतोपि अङ्गं भवति करु इति अङ्गं भवति
एकवारं वदामि ऊ विकरणप्रत्ययं निमित्तीकृत्य क्रु इति धातुरूपी अङ्गं भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण क्रू इति धातुरूपी अङ्गे गुणकार्यं भूत्वा कर् भवति उरण्ड्रपरः सूत्रमपि कार्यं करोति ऊ प्रत्ययः आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः अस्ति चेत् तत्र प्रत्ययः पित् अस्ति वा अपित् अस्ति वा इति चिन्तनम् अनावश्यकम् सार्वधातुकप्रत्ययः इत्युक्ते षित् प्रत्ययः अस्ति चेदेव श्ना श्नं श्नु शा इत्यादिषु प्रत्ययेषु षित्वम् अस्ति पित्त्वं नास्ति तनादिगणे तनादिकुरुन्भ्यः उः इति सूत्रेण सारल्यार्थम् उ इति प्रत्ययस्य निर्माणं कृतवान् पाणिनिः आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः अस्ति चेत् तस्य पित्वम् अस्ति वा अपित्वम् अस्ति वा इति चिन्तनं तत्र अनावश्यकम् अत्र उ इति आर्धधातुकप्रत्ययं निमित्तीकृत्य क्रु इति धातुरूपी अङ्गे गुणकार्यं सार्वधातुक अर्धधातुकयोः सूत्रेण भूत्वा कर् भवति कर् योगः उ करु करु इति अङ्गं भवति करु इति तिप् प्रत्ययस्य कृते अङ्गं भवति महोदय इदानीं वदतु
तिप् प्रत्ययस्य कृते अङ्गं भवति करु इति अङ्गम् एतद् अङ्गम् इगन्तम् अङ्गं भवति किमर्थं चेत् अत्र अन्ते एतस्य अङ्गस्य अन्ते इक् वर्णः अस्ति उ इति इक् वर्णः अस्ति इति कारणतः इगन्तम् अङ्गम् अस्ति तस्मात् गुणस्य प्रसक्तिः अस्ति अधुना प्राप्तिः भवितव्यम् प्राप्तिः कुत्र भवति तिंशित् सार्वधातुकं तिङ् अस्ति तिप् प्रत्ययः तिङ् अपि अस्ति इति कारणतः तत्र तिंशित् सार्वधातुकम् इति सूत्रेण तिप् प्रत्ययः तिङ् प्रत्ययः सार्वधातुकसंज्ञकः भवति तदनन्तरं सार्वधातुक अर्धधातुक तित् अपि तिङ् अपि अस्ति तत्र अपित् नास्ति
तिप् प्रत्ययं निमित्तीकृत्य तिप् इत्यस्मिन् प्रत्यये पित्वमस्ति चेत् गुणकार्यं प्रेरयति शित्वम् अपि च पित्वं स्यात् प्रत्यये पित्वमस्ति चेत् गुणकार्यं करोति इत्यतः तिप् प्रत्ययं निमित्तीकृत्य करु इति धातुरूपी अङ्गं तत्र नास्ति तत्र कीदृशम् अङ्गमस्ति धातुविकरणयोः मेलनेन इत्युक्ते धातुगणविकरणप्रत्ययोः मेलनेन करु इति अङ्गं सिद्ध्यति खलु तत्र उ इति विकरणप्रत्ययं निमित्तीकृत्य पूर्वम् अङ्गकार्यम् अभवत् करु इति अङ्गं साधितं करु इति अङ्गं कीदृशं धातुविकरणयोः मेलनेन तद्रूपं साधितं करु इति रूपं तिप्रत्ययस्य कृते तदेव अङ्गं भवति करु इति अङ्गम् उकारान्तमङ्गम् अस्ति इगन्तमङ्गम् अस्ति अतः तिप्रत्ययं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा करु इत्यस्य रूपं करो भवति उकारस्य गुणसंज्ञकवर्णः ओकारः अतः करु इत्यस्य रूपं करो भवति तेन करोति अत्र कृ धातुः उभयपदी धातुः डुक्रोयि इति कथनेन अन्ते ञकारः इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् इति संज्ञकः अस्ति इत्यतः स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण धातुः उभयपदी भवति महोदय भवान् वदतु
तदेव द्वितीयवारं गुणः भूत्वा करु इति अङ्गं करो भवति तदनन्तरं करो योगे तिप् करो योगेति करोति इति अन्तिमं रूपं सिद्ध्यति तदनन्तरं यथा भवती उक्तं भवत्या उक्तं तत्र ञित् प्रत्ययः सोरि ञित् अन्ते अस्ति इति कारणतः तत्र उभय स्वरितञ्ञित कर्तृभिप्राये क्रियाफले इति सूत्रेण उभयपदी धातुः अस्ति कृधातुः उभयपदी अस्तु धातुः करोति कुरुते एवं लटि रूपद्वयं सिद्ध्यति
उत्तमम् इणित् धातुः इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् इति संज्ञकवर्णरूपेण अस्मिन् धातौ अस्ति डुक्रुञ् इति कथनेन चाच्छा झाझा इणि इति वदामः खलु सः वर्णः तत्र हितसंज्ञकः अस्ति औपदेशिकधातौ उपदेशावस्थायां तादृशं रूपम् अस्ति लौकिकधातुः एव क्रू इदानीं रमेश महोदय भवान् पठतु अग्रे किमस्ति
उद्योगः धरति उद्धृत्य अत्रापि धृ इति धातुः अस्ति तत्रापि तकार तुगागमः भवति हसस्य प्रतिकृति तुक् इति सूत्रेण उद्धृत्य इति रूपं सिद्ध्यति
उत्तमं ध्रुधातोः रूपमेव धरति ध्रुधातोः रूपं धरति वदतु
धरति धृयोगः तिप् इति स्थितिः अस्ति तत्र भवादिगणीयधातुः अस्ति शप् इति विकरण तिप् इति सार्वधातुकप्रत्ययः अस्ति तर्हि शप् इति विकरणप्रत्ययः भवति धृयोगः शप् योगः ति इति स्थितिः भवति शप् इति षकार पकार अपगच्छति अकारः एव तिष्ठति षकार लषक्वतद्दिति इति सूत्रेण गच्छति पकारः हलन्त्यमिति सूत्रेण गच्छति अकारः एव तिष्ठति तत्र शप् इति सार्वधातुकप्रत्ययः अस्ति तिंशित् सार्वधातुकमिति सूत्रेण सार्वधातुकप्रत्ययः अस्ति तत्र सार्वधातुकं तर्हि दृ इति इगन्तः अस्ति तर्हि गुणः भवितुम् अर्हति सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति दृ ऋकारस्य स्थाने अकारः आगच्छति उरण्परः इति सूत्रेण तत् तत्पश्चात् रेफा अपि आगच्छति तर्हि दर् इति रूपं भवति दर् योगः अयोगः ति दरति इति रूपं सिद्ध्यति
बहु उत्तमं महोदय सम्यक् तदेव ध्रुधातुतः धरति हरु धातुः अस्ति चेत् हरति भ्रु अस्ति चेत् भरति इत्यादीनि रूपाणि साधयितुं शक्नुमः समानानि कार्याणि भवन्ति एतेषु धातुषु भवान् एव वदतु अग्रे किमस्ति
अग्रे वियोगः चारयति विचार्य चारि इति धातु अस्ति वियोगः चारि यल्यप् इ चार्य नेरनिटि प्रायः तत्रापि भवति नेरनिटि इति सूत्रेण इकारस्य तत्र यत् निचस्य इकारस्य लोपः भवति इति वा
मम चिन्तनमपि चारयति इति णिजन्तरूपम् अस्ति णिच् नास्ति चेत् चरति चरधातोः लटि रूपं चरति किन्तु णिच् अपि अस्ति इत्यतः चारयति एवमेव चरति सञ्चरति चारयति विचार्य महोदय णिच् नास्ति चेत् ल्यबन्तं किं भवति
चरति इति यद् भवति वा विचर्य इति रूपं भवति
उत्तमं विचर्य इति एव भवति विचार्य इति कथनेन णिच् अपि अस्ति चारि इति नूतनधातोः रूपं साधयितुम् इच्छामश्चेत् धातौ उपधायां ह्रस्व अकारः अस्ति इत्यतः अत उपधायाः इति सूत्रेण उपधायां स्थितस्य ह्रस्व अकारस्य वृद्धिः भूत्वा चारि इति रूपं सिद्ध्यति चर् इत्यस्य रूपं वृद्धिः भूत्वा चार् भवति पश्चात् णिच् इत्यस्मात् इ आगतः तेन चारि इति नूतनधातोः रूपं विचारयति इति लटिरूपम् अस्ति विचार्य इति ल्यबन्तम् अग्रे भवान् वदतु
प्रयोगः पद्यते प्रपद्य इति रूपं भवति पद् इति धातुः द्विवादिगणीयधातुः इति चिन्तयामि
कथं ज्ञातवान्
पद्यते इति रूपं दृष्ट्वा द्विवादिगणीयधातु इति अहं चिन्तयामि
उत्तमं दिवादिभ्यः ष्यन् इति सूत्रेण ष्यन् इति विकरणप्रत्ययः आयाति ष्यन् इत्यस्मात् या अवशिष्यते पद्योगः ष्यन् योगः ते इति रूपमस्ति किमर्थं चेत् धातुः आत्मनेपदी धातुः अतः ते इति प्रत्ययं योजयामः तत्र ष्यन् इत्यस्मात् अनुबन्धलोपे सति या अवशिष्यते तदर्थं पद्योगः या योगः ते पद्यते इति रूपं भवति स्मर्तव्यः अंशः कः कर्तरि लट् रूपं पद्यते कर्मणि लट् रूपमपि पद्यते एव तथा भवन्ति रूपाणि दिवादिगणे प्रपद्यते इति रूपम् अस्ति प्रपद्य इति रूपं बहुत्र शृणुमः
प्रपद्ये
शरणं प्रपद्ये इति अस्ति महोदय भवान् वदतु प्रपद्ये इति कीदृशं रूपं
प्रपद्ये इति आत्मनेपदीरूपं उत्तमपुरुषः एकवचनरूपम्
कृपया एकवारं नवरूपाणि वदतु
प्रपद्यते प्रपद्येते प्रपद्यन्ते प्रपद्यसे प्रपद्येते प्रपद्यध्वे प्रपद्ये प्रपद्यावहे प्रपद्यामहे
बहु सम्यक् अग्रिमं पदं
संयोगः भाषते संभाष्य भाषते तत्र किमपि कार्यं नास्ति इति सम्भाष्यते किमपि कार्यं नास्ति केवलं मेलनमेव यप् अस्ति तदेव अस्ति
अणिजन्तरूपम् अस्ति सम्भाष्य वापदान्तस्य इति सूत्रेण विकल्पेन परसवर्णादेशः भवति. अनुस्वारस्य ई परसवर्णः सूत्रेणापि परसवर्णादेशः भवति, वा पदान्तस्य इति सूत्रेणापि परसवर्णादेशः विकल्पेन भवति. वदतु.
तत्र सङ्गाश्य अपि रूपं भवितुम् अर्हति इति वा?
इत्युक्ते अनुस्वारयुक्तं रूपम्, एकं परसवर्णयुक्तम् अन्यद् रूपम् अस्ति इति मम चिन्तनम् अस्ति. परसवर्णयुक्तं रूपं लिखितम् अस्ति सम्भाष्य इत्यत्र. पवर्गीय अनुनासिकव्यञ्जनमस्ति, मकारः अस्ति. परसवर्णादेशं कृत्वा अस्मिन् पुस्तके लिखितम् अस्ति. वापदान्तस्य सूत्रेण विकल्पेन परसवर्णादेशः भवति इति मम अवगमनं. भवती वदतु भगिनि, अत्र किमस्ति?
सम्भाष्य भवति, सम्भाष्य अपि भवति.
अनुस्वारयुक्तं रूपम् एकं, परसवर्णयुक्तं रूपम् अन्यदपि लेखितुं शक्नुमः. दर्शनभगिनी भवती वदतु, अग्रे किं लिखितम्?
कोष्टकात् शुद्धं ल्यबन्तरूपं चित्वा रिक्तस्थाने लिखत. कोष्टकात् पञ्चमी विभक्तिः, कोष्टक अकारान्त पुंलिङ्गशब्दः.
कोष्टकम् अस्ति वा, कोष्टकः अस्ति वा? अन्यः कोऽपि वदतु, अत्र किं रूपं शुद्धम्?
कोष्टकः.
कोष्टकं शुद्धम् इति मन्ये इदानीं.
कोष्टकः एव पुल्लिङ्गरूपमेव साधु इति मन्ये.
वर्षा भगिनी.
महोदय पुनः पृच्छतु, महोदय न श्रुतं.
कोष्टकम् इति साधु वा, नो चेत् कोष्टकः इति साधु वा?
कोष्टकः. क्षम्यताम्.
स्पोकन् सान्स्क्रिट् मध्ये द्वौ अपि साधु साधु एव.
अस्तु, अग्रे सरतु.
शुद्धं ल्यबन्तरूपं, शुद्धं तत्र ल्यबन्तरूपम् इति शब्दस्य विशेषणम् अस्ति. ल्यबन्तरूपं यथा आदौ एव उक्तं, ल्यप् अन्तरूपं, तत्र जष्ट्वसन्धिः भूत्वा ल्यबन्तरूपम् इति सिद्ध्यते. चित्वा, चित्वा तु त्वा रूपः अस्ति. धातुः तु चि एव अस्ति इति मन्ये.
चि धातोः रूपं चिनोति, चिनुते इति रूपद्वयमस्ति, स्वादिगणे अस्ति. चि धातुः ह्रस्व इकारान्तधातुः, चि योगः त्वा चित्वा, तावदेव. तत्र किमपि कार्यं नास्ति. जि धातुः अस्ति चेत्
जित्वा एव,
जित्वा एव. चि अस्ति चेत् चित्वा, चित्वा, जित्वा. तत्र धातुः ह्रस्व इकारान्तधातुः. शुद्ध धातोः कृतान्तरूपमेव शुद्धम्. शुद्ध इति धातुः अस्ति. शुद्धधातुतः कृताप्रत्ययस्य योजनेन शुद्धं. वदतु.
तर्हि रिक्त, रिक्तस्थाने, तत्र रिक्तस्थानं तु समासः अस्ति. नाम तु अहं न जानामि.
विग्रहवाक्यं,
हा, विग्रहवाक्यं न जाने. रिक्तश्च स्थानश्च.
पुनः
विशेषणपूर्वं
विग्रहवाक्यं सम्यक् वक्तव्यं. स्थानम् इति नपुंसकलिङ्गं.
रिक्तं, रिक्तं च स्थानं च.
रिक्तं च तत् स्थानं च.
रिक्तं च तत् स्थानं च.
तस्मिन्,
तस्मिन्, हा, सप्तमी अस्ति. सत्यं. रिक्तं च स्थानं च तस्मिन्.
रिक्तं च तत् स्थानं च.
तत् स्थानं च. रिक्तं च तत् स्थानं च तस्मिन्. सप्तमी विभक्तिः अस्ति. अग्रे लिखत, लिख् इति धातुतः धातोः लोट् लकारः अस्ति, मध्यमपुरुषः, बहुवचनम्.
उत्तमं. रिक्तस्थानम् इत्यत्र विशेषणपूर्वपदकर्मधारय समासः अस्ति. अग्रे वदतु.
विशेषणपूर्वकर्मधारयसमासः. अग्रे विलिख्य अथवा विलिखित्वा, तत्र विलिख्य शुद्धमस्ति. आनीत्वा, आनीय, आनीय इति शुद्धमस्ति. व्युत्पत्तिः वदनीयं किं भगिनि?
विलिख्य इत्यत्र किमपि नास्ति खलु?
सत्यं. वि उपसर्गः अस्ति. लिख्, लिख् इति लिख् इति धातुः. लिख् ल्यप् योजनेन तत्र पकारान्तः तु किं हलन्त्यम् इत्यनेन गच्छति लिख् ल तु लशक्वतद्धिते इति सूत्रेण अपगच्छति किम् अवशिष्यते य अवशिष्यते विलिख्य इति योजनेन भवति वर्णमलिमेलनेन
उत्तमं विलिख्य इत्यत्र इडागमः नास्ति यकारादिप्रत्ययः यकारः वलि नास्ति इत्यतः इडागमः नास्ति किन्तु लिखित्वा इत्यत्र इडागमः दृश्यते किमर्थं चेत् क्त्वा प्रत्ययः तकारादिप्रत्ययः तकारः वलि अस्ति वलादिवर्णः एव तकारः आर्धधातुकस्येड् बलादेः इति सूत्रेण तकारः वलादिवर्णः इत्यतः लिखित्वा इत्यत्र इडागमः अस्ति विलिख्य इत्यत्र इडागमः नास्ति आनीय वदतु
आनीय नी इति धातु तत्र आ इति उपसर्गः अस्ति आङ् आङ् अस्ति किल तत्रापि य अस्य योजनेन आनीय भवति सम्यक् अस्ति किं भगिनि
हा सम्यक् एव अत्रापि किमपि कार्यं नास्ति आ उपसर्गपूर्वक नी धातुतः ल्यप् योजनेन तत्र ल्यप् इत्यस्मात् य अवशिष्यते आयोगः नियोगः य आनीय रूपं सिद्ध्यति नी धातोः रूपमेव नयनं ल्युडन्तं खलु नायकः इत्यपि नीधातोः रूपमेव णुवुल्लन्तं रूपम् अस्ति णुवुल् प्रत्ययान्तरूपं नीधातुतः नायकः णिजन्तरूपमस्ति नाययति आनाययति इति वक्तव्यमस्ति णिच्युक्तं लटीरूपम् आनाययति अग्रे वदतु
अग्रे सम्प्रेष्य सम् उपसर्गः प्रेष् इति धातुः तत्र अपि वर्णमेलनमेव सम्प्रेष्य
उत्तमं प्रेषते इति लटिरूपम् अस्ति प्रेषयति इति णिजन्तरूपम् अस्ति सम्प्रेष्य इति साधु अग्रे वदतु
अदे अग्रे ज्ञा धातुः अस्ति वि उपसर्गः अस्ति तत्रापि विज्ञाय वर्णमेलनम् एव
उत्तमं ज्ञा धातोः लटीरूपं जानाति क्रियादिगणे अस्ति नवमे गणे अस्ति लटीरूपं वक्तुमिच्छामश्चेत् विजानाति ज्ञा धातोः रूपं विज्ञाय अहं पूर्वमपि उक्तवती स्था धातोः रूपमस्ति चेत् प्रस्थाय निधाय आदाय इत्यादीनि रूपाणि आकारान्तधातूनां रूपाणि अग्रे वदतु
उद्धृत्य इदानीमेव रमेशमहोदयेन उक्तमेव उद्धृत्य उत् उपसर्गपूर्व धृ इति धातुः तत्र सूत्राणि तु अहं न जानामि
ह्रस्वस्य पिति कृति तुक् इति उक्तवान् महोदय तेन सूत्रेण तुक् आगमः भूत्वा उद्धृत्य इति रूपम् अग्रे वदतु
तत्र समाप्य सम् आदौ कृतवन्तः किल समाप्य आप् आप् इति धातु संयोगः आप् योगः ल्यप् समाप्य तत्रापि किमपि कार्यं नास्ति
उत्तमम् अत्र अस्माकं कार्यं किं शुद्ध ल्यबन्तरूपाणां चयनं करोतु इति लिखितम् अस्ति शुद्धानि ल्यबन्तरूपाणि चेतव्यानि तव्यत् रूपं किं भवति ची धातोः तव्यत्
ची धातोः ची चयन् तव्यत् चेतव्यं
चेतव्यं रूपं साधयतु
अहं प्रयत्नं करिष्यामि भगिनि परन्तु ची तव्यं तत्र गुणकार्यं कथं भवति अहं न जानामि भगिनि
तव्यत् इति प्रत्ययः अस्ति ची धातुः अस्ति ची धातुः इगन्तधातुः धातोः परं तव्यत् इति अकित् प्रत्ययः अस्ति वदतु सुन्दरमहोदय भवान् वक्तुमिच्छति वा
ची योग्ये तव्यत् प्रत्ययः आर्धधातुकप्रत्ययः एवम् अकित् प्रत्ययः इति कारणतः गुणस्य प्रसक्तिः भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणस्य प्राप्तिः भवति, प्राप्तिः ददाति एवं तव्य तव्यत् तकारः अन्तिम तकार अन्तिमवर्णः तकारः हलन्त्यम् इति सूत्रेण उत्संज्ञा भूत्वा अपगच्छति. तदनन्तरं चि चि इति धातुः इगन्तधातुः इति कारणतः गुणस्य प्रसक्तिः भवति एव. अधुना प्राप्तिः अपि आगच्छति इति कारणेन गुणः भूत्वा चि चि योगे तव्य चे गुणः भूत्वा चे भवति एवं चे योग योगे तव्य चेतव्यः इति अन्तिमं रूपं सिद्ध्यति.
उत्तमं. चि धातुः ईगन्तधातुः. चि धातोः परं तव्यत् इति प्रत्ययः अस्ति. तव्यत् प्रत्ययः आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययं निमित्तीकृत्य चि इति धातुरूपी अङ्गे सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा चि इत्यस्य रूपं चे भवति. ईकारस्य गुणः एकारः, चि चे भवति. चे योगः तव्य वर्णमेलनं. चेतव्य प्रातिपदिकं. त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. त्रिषु वचनेषु, सप्तसु विभक्तिषु एकविंशति रूपाणि. प्रत्येकं लिङ्गस्य रूपाणि एकविंशति रूपाणि साधयितुं शक्नुमः. तव्यत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. रूपं चेतव्यं, चेतव्यं, चेतव्यः, चेतव्य एवं रूपाणि भवन्ति. अत्र शुद्धानि ल्यबन्तरूपाणि चेतव्यानि. तस्मिन् स्थाने चयनीयम् इति अपि योजयितुं शक्नुमः. तव्यत् अनियर् द्वयोः अर्थः समानः. अनियर् प्रत्ययस्य योजनेन चयनीयं, चयनीयम् इत्यत्रापि गुणकार्यं भवति. अनियर् प्रत्ययः तव्यत् प्रत्ययः कित् नास्ति. आर्धधातुकप्रत्ययः कित् गित् नित् अस्ति चेदेव गुणकार्यं निषिध्यते. किं वक्तव्यं? कित् गित् नित् इणित् णित् तत्र पञ्चप्रत्ययाः सन्ति. तेभ्यः भिन्नः अस्ति चेत् सुन्दरमहोदय भवान् वदतु, कित् गित् नित् इणित् णित् तेभ्यः भिन्नः अस्ति चेत् किं भवति?
तेभ्यः भिन्नः अस्ति चेत् आर्धधातुकप्रत्ययः गुणः प्रदेशे गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण. एतत् कित् ञित् ञित् णित् भिन्नः अस्ति. चत्वारः इति कित् ञित् ञित् णित् चत्वारः एव अस्ति. पञ्च किमर्थं?
गित् अपि अस्ति.
गित् अपि अस्ति वा? ओके.
ङिति च इत्यस्मिन् सूत्रे प्रत्ययः कित् गित् ञित् अस्ति चेत् गुणनिषेधः इति उक्तमस्ति. किन्तु तत्र किं वक्तव्यम् इत्युक्ते एकः एव गित् प्रत्ययः अस्ति. घ्नु प्रत्ययः एकः एव गित् प्रत्ययः अस्ति. कित् नित् इणित् णित् भिन्नः इति वक्तव्यं चेत् पर्याप्तं भवति इति महोदयस्य आशयः. तव्यत् प्रत्ययः कित् नास्ति, ञित् नास्ति, इणित् नास्ति, अणित् नास्ति. धातुः इगन्तधातुः अस्ति चेत् सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति. अतः चेतव्यम् अनियर् प्रत्ययान्तरूपेषु अपि तत्र गुणकार्यं भवति. गुणकार्यस्य अनन्तरं यचोयवायावः सन्धिकार्यमपि भवति. चि इत्यस्य रूपं चे भवति खलु. चे इत्यस्य अनन्तरम् अनियर् अस्ति. अनियर् इत्यत्र रेपः हलन्त्यम् इत्यनेन इतिसंज्ञकः भूत्वा अपगच्छति. अनीय इति एव तत्र तिष्ठति. चि योगः अनीय इत्यत्र अनियर् इति आर्धधातुकप्रत्ययं निमित्तीकृत्य चि इति धातुरूपी अङ्गे गुणकार्यं भूत्वा चे भवति. चे योगः अनीय इत्यत्र यचोयवायावः इत्यनेन सन्धिकार्यं भूत्वा चयनीय इति प्रातिपदिकं सिद्ध्यति. प्रकृतिविषयः सः नास्ति. दर्शना भगिनी वदतु.
अग्रे उद्घाट्य इति पदमस्ति. उद्योगः घट् इति धातुः, योगः ल्यप्. तत्र घ घा कथं भवति न जाने भगिनी.
णिच्छस्ति.
णिच्छस्ति उद्घाट्य.
भवती जानाति खलु उद्घाटयतु.
परन्तु तदेव स्वार्थे अस्ति तत्र.
अत्र तु स्वार्थे णिच् नास्ति, प्रेरणार्थे णिच् अस्ति. धातुः घट् अस्ति. पठ् धातुः इव घट् धातुः. उद्घाटयति, उद्घाटयतु इत्यादीनि रूपाणि सन्ति. लटिरूपम् उद्घाटयति, पुस्तकम् उद्घाट्य पठतु इति वाक्यं साधु भवति. अत्र घट् इति धातुतः अत उपधायाः सूत्रेण वृद्धिकार्यं भूत्वा घाटि इति नूतनधातोः निर्माणं निच्युक्तं ल्यबन्तम् उद्घाट्य इति मम चिन्तनम्. सुन्दरमहोदय, भवान् किं चिन्तयति?
अत उपधायाः तदेव प्रष्टुम् इष्टवान्. अत उपधायाः इति सूत्रमेव तत्र कार्यं करोति किल, वृद्धिकार्यं करोति किल, वृद्धिकार्यम् उद्घाट्य इति वृद्धिकार्यं करोति अत उपधायाः इति सूत्रमेव किल.
एकः धातुः भुवादिगणे अस्ति घटचेष्टायाम् इत्यस्मिन् अर्थे, चेष्टायाम् इत्यस्मिन् अर्थे भुवादिगणे अस्ति. घटते इति रूपम् अहं जानामि, किन्तु णिजन्तरूपम् अत्र अपेक्षितम् इति मम अवगमनम्. उद्घाट्य इत्यत्र णिच् अपि अस्ति. दर्शनभगिनी वदतु
अग्रे. प्रविष्ट्वा, प्रविश्य इति साधुरूपं, प्र उपसर्गः विश् इति धातु, तत्र किमपि कार्यं नास्ति, प्रविश्य इति भवति.
उपसर्गेभ्यः धातुभ्यः एव ल्यप् विहितः भवति. अत्र उपसर्गः नास्ति चेत् किं भवति रूपम्?
उपसर्गः नास्ति, वेश्य.
उपसर्गः नास्ति, नास्ति चेत् क्त्वान्तरूपं सिद्ध्यति.
आम् आं, क्षम्यतां, विष्ट्वा, प्रविश्य अस्ति, प्रविष्ट्वा.
उत्तमम्, विष्ट्वा. विष्ट्वा इत्यत्र किं भवति? रोहिणी भगिनी वदतु, विष्ट्वा इत्यत्र किं भवति?
विश्वयोग त्वा भवति, अत्र शकारस्य शकार भवति, सूत्रं विस्मृतवती. तदनन्तरं स्टुनाष्टुः इति सूत्रेण स्टुत्वं भवति, विष्ट्वा इति रूपं भवति.
उत्तमं, मूर्धन्यशकारान्तधातुः, तत्र मूर्धन्यशकारः अस्ति. तालव्यशकारान्तधातुः अस्ति चेत् तालव्यशकारस्य स्थाने व्रश्चभ्रश्चसूत्रेण शकारादेशः भवति. तत्र मूलधातौ एव मूर्धन्यशकारः अस्ति चेत् केवलं ष्टुनाष्टुः सूत्रं कार्यं करोति. विष्ट्वा इति रूपं साधयितुं तत्र तालव्यशकारान्तधातुः अस्ति चेत् आदौ तालव्यशकारस्य स्थाने मूर्धन्यशकारस्य आगमनं भवति. व्रश्च भ्रश्च सृज मृजय जराज भ्राज छशांशः सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति. किन्तु धातौ एव मूर्धन्यशकारः, मूलस्थित्याम् एव मूर्धन्यशकारः अस्ति चेत् केवलं ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं भूत्वा विष्ट्वा इति रूपं सिद्ध्यति. अग्रे दर्शना भगिनी भवती एव वदतु.
आहूय, आहूय इति शुद्धरूपं, हा इति धातु इति मन्ये, नैव किम्?
द्वे धातु भगिनि, द्वे
धातुः. अत्र कानि कानि कार्याणि भवन्ति वदतु.
आहूय इति वा? आङ्ग उपसर्गपूर्व पूर्वक ह्वे धातोः स्वेद ह्वे धातुतः ल्यबन्तं ल्यबन्तप्रत्ययः योजनेन आहूय इति भवति. तस्य प्रक्रिया किं भवति इत्युक्ते ह्वे तत्र सम्प्रसारणं भूत्वा हू भवति किल, सम्प्रसारणं.
धातुः तु ह्वे धातुः, ह्वे इति कथनेन हकारः वकारः एकारः अस्ति धातौ. ह्वे धातुः विशिष्टधातुः, सम्प्रसारणी धातुः इत्युक्ते सम्प्रसारणकार्यं भवितुं तस्मिन् आनुकूल्यम् अस्ति. ह्वे धातुः सम्प्रसारणी धातुः. इदानीं प्रक्रियां पश्यामः. आयोगः ह्वे योगः ल्यप् इति स्थितिः अस्ति. वचिस्वपि यजादीनां खिति इति एकं सूत्रमस्ति. यजादीनाम् इति उक्तमस्ति सूत्रे. आदीनाम् इति कथनेन खे इति धातुः अपि तेषु अन्तर्भूतः, अयं धातुः अपि इति अवगन्तुं शक्नुमः. वचिस्वपि यजादीनां खिति इति लिखितमस्ति. खिति इति कथनेन कित् प्रत्यये परे. अत्र ल्यप्रत्ययः तु साक्षात् कित् नास्ति, किन्तु ल्यप्रत्यये कित्वम् अध्यारोप्यते. क्त्वा प्रत्ययस्य स्थाने आयाति इत्यतः कित्वम् अध्यारोप्यते अतः ल्यप्रत्ययः अपि कित्वत् प्रवर्तते अतः वचिस्वपि यजादीनां खिति इति सूत्रेण सम्प्रसारणकार्यं भूत्वा वकारस्य स्थाने अत्र ह्वे इत्यत्र हकारोत्तरवर्ती वकारः अस्ति खलु वकारस्य स्थाने उकारादेशः भवति इति कृत्वा आयोगः हकारयोगः ऊयोगः ये इति रूपमस्ति तत्र सम्प्रसारणाच्च इति एकं सूत्रमस्ति तेन सूत्रेण सम्प्रसारणकार्यानन्तरं यः ऊकारः आगतः ऊकार एकारयोः मध्ये सम्प्रसारणाच्च इति सूत्रेण ऊकार एकारयोः स्थाने द्वयोः स्थाने पूर्वरूपादेशः भवति इति कृत्वा ऊ एव तत्र तिष्ठति आयोगः हकारः योगः ऊ इति स्थितिः अस्ति तस्य अनन्तरं या अस्ति इदानीं वर्णमेलनेन आहूय इति रूपं सिद्ध्यति वकारस्य स्थाने ऊकारादेशः पश्चात् सम्प्रसारणाच्च सूत्रेण केवलं पूर्वरूपादेशः द्वयोः वर्णयोः स्थाने पूर्वरूपादेशः भूत्वा ऊकारः तिष्ठति अतः आहूय इति रूपमस्ति सम् उपसर्गः अस्ति चेत् समहूय प्रहूय आहूय इत्यादीनि अपि रूपाणि सन्ति
तत्र ह्रस्व ऊ एव अस्ति तदनन्तरं दीर्घः भवति हल् प्रत्यय हली च इति सूत्रेण हल् आदि प्रत्यय अस्ति चेत् उकारस्य स्थाने ऊकारादेशः भवति प्रथमं वाकारस्थाने ऊ भवति तदनन्तरं ये लोपः भवति
ये लोपः इति न वदामः पूर्वपरयोः एकः पूर्वरूपादेशः
तदनन्तरं सम्प्रसारण उकारः अन्ते अस्ति चेत् परस्य यकारादिप्रत्यये अस्ति चेत् दीर्घत्वं भवति हलि च इति सूत्रेण
अहमपि चिन्तयन्ती अस्मि दीर्घ ऊकारः कथमायाति इति प्रश्नः उदेति एव इको एणचि इत्यस्य विरुद्धं सूत्रमस्ति सम्प्रसारणकार्यमस्ति यवरलस्थाने इवुरुलु आदेशाः भवन्ति इग्यणः सम्प्रसारणं सूत्रेण यणः स्थाने इक्वर्णाः आयान्ति इति साधु अत्र हलि च अपि अस्ति वा
आं भगिनि हल् प्रत्यया परे
हलि हलन्त हलादिप्रत्यय परा अस्ति चेदेव
दिव् धातोः प्रसङ्गे दीव्यति इति रूपं सिद्ध्यति खलु दिव् इत्यत्र दीव्यति इति रूपं साधयितुमिच्छामश्चेत् दिवादिभ्यः श्यन् इति सूत्रेण श्यन् विकरणप्रत्यये या आयति दिव् इत्यस्य रूपं दीव्यति भवति इति प्रश्ने सति तत्र हलिचसूत्रस्य कार्यम् अस्ति हलिचसूत्रेण एव दीर्घादेशः कृत्वा दीव्यति इति रूपं सिद्ध्यति अग्रे सरेम
परियोगः वेश् विश् क्षम्यता परियोगः विश् आदौ एव कृतवन्तः परिवेश्य
संहृत्य उक्तमेव खलु
संहृत्य न उक्तं नैव हृ इति धातुः तत्र सम् इति उपसर्गः संहृत्य संहृत्य तत्र तकारस्य आगमनं
तुक् आगमः भवति अन्नं परिवेशयतु इमानि वाक्यानि परिचितानि एव परिवेशयति इति णिजन्तरूपमस्ति किमर्थम् एतत् पठनीयम् इत्युक्ते शुद्धं रूपं किम् अशुद्धं रूपं किम् इति अस्माभिः मनसि स्थापनीयम् अन्तिमं पदं करोतु
अन्तिमम् उत्थित्वा तत्र स्थाधातु उत् इति उपसर्ग उत्थाय इति शुद्धरूपम्
शुद्धं रूपम् उत्थाय अत्रापि उदः स्थास्तम्भो पूर्वस्य सूत्रेण सकारस्य स्थाने थकारः आयाति इत्यतः उत्थाय तत्र इतोपि अन्यानि कार्याणि सन्ति कार्याणि चि धातोः रूपं चित्वा इति लिखितमस्ति चि धातोः ल्यबन्तरूपम् एकं वदतु कोऽपि
कुत्र इदानीं कृतवन्तः किल
चित्वा इति कृत्वान्तरूपं दत्तमस्ति ल्यबन्तं वक्तव्यम् निश्चित्य
निश्चित्य
निश्चित्य इति परिचितं पदमस्ति निश्चित्य इति रूपम् अस्ति चिन्त्यधातोः विचिन्त्य इति रूपं भवति जी धातुः अस्ति चेत् विजित्य पराजित्य इत्यादीनि रूपाणि सन्ति विजयते पराजयते इति आत्मनेपदीरूपं विजित्य पराजित्य इति रूपाणि जी धातोः रूपाणि सन्ति एवं वयं किञ्चित् चिन्तनं कृतवन्तः अग्रे अपि अभ्यासाः सन्ति तेषां प्रसङ्गे आगामिन्यां कक्षायां चिन्तनं करिष्यामः इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः
अनेके धन्यवादाः
धन्यवादाः धन्यवादाः